एषो उषा अपो अर्व्याव्यच्छते प्रजादिवः स्तुषेवामश्विना बृहत् यादस्रा सिन्धुमातरा मनोतरा रजीणाम् धिजा देवा वसुविदा वच्यन्ते वाङ्गगुहासो जोर्णाजामधिभिष्टपि यद्वाम् रथो बिभिष्पतात् हविषा जारो अपाम् बिभर्ति पपुरिर्नरा पिता कुटस्य चर्षणिः आधारो वा मतीनान्ना सत्यामतवचसा पातम् सोमस्य धृष्णजा यानः पेपरदश्विना ज्योतिष्मतीतमस्थिरः तामस्मेरा साथामिषम् आनो नावामतेनायातम् पाराजगन्तवे युञ्जाथामश्विनारथम् अरित्रम् वान् दिवस्प्रथुतीर्थे सिन्धो नाम् रथाः धिजाजज्र इन्दवः दिवस्कण्वास इन्दवो वसु सिन्धो नाम् पदे स्वम् वव्रिम् कुहधित्सथः अभो दुभा ओ अंशवे हिरण्यम् रथिसूर्याः व्यख्यजिह्वयासितः अभो दुपारमेतवे पन्था रथस्य साधुजा अदर्श विश्रुतिर्दिवः तत्तदिदश्विनोरवो जरिता प्रतिभूषति मधे सोमस्य पिप्रतोः वावसानाभिवस्मति सोमस्य पीत्या गिरा अनुष्वच्छम् भू आगतम् युवोरुषा अनुश्रियम् परिज्वनोरुपाचरत् ऋतावनथो अग्नुभिः उभापिबतमश्विनो भानः शर्म यच्छतम् अविद्रिजाभिरोतिभिः इति तृतीयोऽध्यायः।